धन्यवादः। ओके, अद्यतन सुभाषितं कः पठति?
अहं पठामि भगिनि।
अस्तु, पठतु शिला भगिनि।
आपत्स्वेव हि महतां शक्तिरिभ्यज्यते न सम्पत्सु अनुरोस्तथानगन्धो घ्राणेस्ति यथाग्नि परितस्य पतितस्य
उत्तमस्य। पदच्छेदं पठति वा?
आपत्सु कोलोमिथि मिस्फोर्चून् एव इन्डीड् हि श्योर्लि महतां नोबल् पर्सन् नोबल् पीपल् अभिव्यत्यज्यते अभिव्यज्यते displayed sin manifest sampatsu wealth riches of plunge
angur a herb
tatha such thus gandho smell granosti on smelling yatha for instance
granesti
yatha for instance just like agni fire patitasya on being thrown in
uttamam atam vaktum icchati va do you want to try saying the meaning
a noble people will manifest like a herb of us of the smell no bhagini
okay chinta mastu uttam prayatnam so it means that noble people or strong people they will show their true character when they're facing difficult situation or challenging situation at that time they should be remaining calm without anger and etc. So similar to the one herb agur in this subhashitam, which when it's put on fire it gives off a sweet smell, so it means that we should be calm during challenging situations. Astu va avagachati va prashnam asti va?
No bhagini.
Na uttama uttama. Okay, adyatana patyakramah asti grihapatham. I gave the sulabha balakandam. We'll go over that. That will be our grihapatham and punasmaranam, and then we will continue with the vibhakti vallari. Okay, so I will send out the link of the sulabha balakandam, and then we'll go over together. Ek animation, I'll send out the link. Okay, did everyone get it?
I'm beginning.
Okay. So let's begin. Sulabha Bala Tandam Grahabhyasaha. So this was from another teacher that Sheila Bhagini found and gave for me. So thank you very much for that. Danyavadaha. So this was just like the last class. Fill in the blanks below. Consider the correct vibhaktihi, lingam and vachanam. And only one word should be filled for the blank spaces. And at the end, it gives some meaning. Other words. Okay. Aram Karishyamaha. Okay. Pratima Bhagini, can you do the first sentence? Pratima Bhagini?
Yeah. I'm doing. Dasharataha Ishvaku Vaushasya Maharaja.
Uttam. Sheila Bhagini?
Ayodhya Nagare Vasati.
Uttamam. Narasimha Mohdaya?
Yeah. Dasharatasya Pratama Patni Kausalya Ditiya Sumitra. Kaikeyiyacha Tritiya.
Uttam. Sukshma Bhagini?
Sa ekam yagam karuti.
Uttama. Pratima Bhagini?
Bhagini, what is yagam? It's a yagyam, right?
Yes.
Same thing.
Okay.
Pratima Bhagini?
Yeah, I'm doing that. Agni kunde yagna purushah pratyakshah bhavati.
Uttamam. Sheila Bhagini?
Bhagini, why pratyakshah pratma vibhakti it is, it?
Yeah.
Yes, so it follows same way as yagna purushah. Yagna purushah pratyakshah.
Oh, okay. So, pratyaksha is an adjective, that's why?
Yes.
Okay. Thank you, Bhagini.
Sheila Bhagini?
Yagya Purushat Dasaratha Payasam Prapnoti.
Uttamam. Narasimha Mohdaya?
Dasaratasya Patnayaha.
Patnyaha.
Patnyaha. Payasam pibanti.
Uttama. Pibanti. Uttama. Sukshma Bhagini?
Tasya prabhavat kausalya yaha garbhe ramha avatarati.
Uttamam. Pratima Bhagini?
Sumitrayaha lakshmanaha shatrugnaha iti putrau bhavataha.
Uttamam. Tanantaram Sheila Bhagini?
Kaikeyi Bharataha iti putram janayati.
Janayati.
Next.
Kshamita.
Ekada Maharshihi Vishwamitraha Maharajasya Dasarathasya Samipam Agachati.
Ekada Maharshihi Vishwamitraha.
Maharaja is also Visheshanam of a
Dasharatha. Okay, Uttamam. Maharajasya Dasharathasya Samipam Agachati. Uttamam. Okay. Narasimha Mohdaya?
Saha Vadati. Aham ekam yagam karomi yagasamye rakshasaha
rakshasaha
rakshasaha विघ्नं जनयन्ति
आम् ओके यागसमये ओके उत्तमं जनयन्ति सुषमा भगिनी
यागस्य रक्षणाय भवतः पुत्रं रामं मया सह प्रेषयतु दशरथः वदति रामः तु बालकः
उत्तमं प्रतिमा भगिनी
अहम् एव आगच्छामि
उत्तमं शीला भगिनी
विश्वामित्रः वदति रामः बालकः परन्तु सः समर्थः अस्ति
उत्तमं नमस्ते महोदय
सः एव आगच्छन्ति आगच्छत् सः एव केम् अलाङ्ग्वेज् न सः एव आगच्छत्
So Vishwamitra is asking the king if Rama could come.
Saha eva agachatu.
Ah, uttama. Saha eva agachatu. Samyak. Okay. Sukshma Bhagini?
Agachatu. Dasharataha.
पुनः वदतु कृपया
दशरथः विश्वामित्रेण सह रामं प्रेषयति
उत्तमं प्रतिमा भगिनी
रामेण सह लक्ष्मणः अपि गच्छति
उत्तमम् ओके शीला भगिनी
रामलक्ष्मणौ महर्षि ऐ डोण्ट् नो भगिनी दिस् वन् महर्षि विश्वामित्रेण सह चलतः
महर्षिणा
वै इस् देट् भगिनी
महर्षिणा बिकास् इट् फालो सेम् थिङ्ग् एस् विश्वामित्रेण सो महर्षिः इस् लैक् इकारान्त पुल्लिङ्गं रैट् सो महर्षिणा
इस् देट् तृतीया विभक्ति
मित्रेण इस् अ त्रिया विश्वामित्रेण इस् अ तृतीया विभक्ति सो महर्षि तृतीया इस् अ महर्षिणा
यस्
महर्षिणा
सम्पूर्णं वाक्यं वदतु कम्प्लीट् द होल् सेण्टेन्स्
भगिनि रामलक्ष्मणौ महर्षिणा विश्वामित्रेण सह चलतः
उत्तमम् उत्तमं चलतः ओके नमस्ते महोदय
मार्गे घोरवनं भवति मार्गे घोरं वनं भवति
उत्तमं घोरं वनं भवति सो वनं देन् घोरं दे बोत् आर् इक्वल् उत्तमम् ओके तदनन्तरं सूक्ष्म भगिनी
गुरुवन् तत्र ताटका इति राक्षसी निवसति रामः दुष्टाः ताटकायाः वधं करोति
उत्तमं अमीरा महोदय स्वागतं
दुष्टायाः
क्षम्यता दुष्टायाः
एड्जेक्टिव् आफ् ताटका सो दुष्टायाः
दुष्टायाः
ओके सो एड्जेक्टिव् टेक् वाट् एवर् विभक्ति आफ् द नौन् दे डिस्क्रैब् इस् देट् द फार्मुला
यस् यस्
अच्छा ओके थेङ्क् यू भगिनि
दुष्टायाः ओके अमीरा महोदय स्वागतं डू यू नो वेर् वी आर् Okay, do you want to do the next sentence, Anantaram?
Yeah. Anantaram Ramah Lakshmana cha Vishwamitrasya Ashramam Pravishanti.
Uttama.
विश्वामित्रः यागम् आरम्भं करोति.
Maybe it should be pravishatah because dvivachana ramah lakshmanah cha.
Okay.
No, it has got dvivachanam for the verbs also. Pravishatah, I thought there is only one vachanam for ekvachanam bahuvachanam. Dvivachanam is also there.
Yes, there is dvivachanam of kriyapadam. There is dvivachanam of the verbs. Yes. So Ramah Lakshmanah Pravishatah Uttamam. Okay. Pratima Bhagini.
Vishwamitrah Yagasya Arambham Karoti.
Uttamam. Shila Bhagini.
Subahuhu Mari Chaha Iti Rakshasau Tatra Agachatah.
Uttamam. Narasim Modaya.
तौ यागस्य नगराय
नाशाय
तौ यागस्य नाशाय रक्तमांसादिकं पातयन्ति.
So, dvivachanam kalu, so patayatah.
Patayatah.
Tau patayatah.
Tau patayatah.
Okay. Sukshma Bhagini?
Ramaha Banina Subahum Marayati. Is that correct?
Samyak. Subahum Marayati. तदनन्तरम् अमिरा महोदय.
आम् रामबाणेन रामस्य बाणाय. विच् वन्?
रामस्य
बाणाय मारीचः समुद्रे पतति.
बाणेन.
Okay.
So, Mahodaya, what's the difference between Banaya and Banena?
Banena is Tritiya, that is with the Bana is being thrown out, whereas Banaya means
for the Bana, for the arrow. So, Banena means by the arrow.
Okay, it should be Banena, you are correct.
Okay, uttama. Pratima Bhagini?
Vishwamitrasya yagah nirvignam samaptam bhavati.
Uttama. Samyak. Okay, Shila Bhagini?
Mithila Nagarasya Raja Janakah.
Anasya Madhya?
सः पुत्री सीता. यू हैव टु यूज हिस पुत्री न.
सो व्हाट विभक्ति शुड सः बिकम दीना स्मरति वा.
सः पुत्री.
It's possessive.
First one, no?
No.
Putri.
His daughter is Sita. Shashti Bhakti.
Not mama. Not recalling.
ओके कः जानाति
तस्य पुत्री सीता.
आम् तस्य पुत्री सीता. सम्यक्. ओके सूक्ष्म भगिनी.
सा अतीव सुन्दरः गुणसम्पन्ना च. Is that correct?
Okay, so sa strilingam asti, sundara kim bhavati?
Sundari.
Sundari.
Okay, so sa ativa sundari guna sampanna cha.
Uttama. Okay. Amira Amoya?
Vai sundaram, sa ativa sundaram or what is the...
Sa is strilingam, kalu. So sundara is describing Sita, which is strilingam, sa strilingam. So sundar, sa sundari, sundari is strilingam, sundaraha or sundaram is pullingam.
Okay.
So sundari.
Maharajasya janakasya samipe ekaha divya chapaha asti. Is it correct, the Maharajasya Janakasya Samipe?
That's Uttamam. Ekaha?
Divya Chapam Chapaha Asti.
Okay, Divya Chapaha Asti Samik. Okay, Pratima Bhagini?
Yeah. Yaha Tasya Chapasya Maurvi Bandhanam Karoti Saha Eva Sitayaha Pati Bhavati इति जनकस्य निश्चयः
उत्तमम् शिला भगिनी
राम लक्ष्मणौ विश्वामित्रेण सह मिथिला नगरे मिथिला नगरं गच्छतः
सम्यक् ओके नरसिंहमहोदय
मिथिला नगरे और मिथिला नगरे गच्छतः और मिथिला नगरं गच्छतः
नगरं
मिथिला नगरं नगरं
ओके
to the city. Nagaram. Okay. Nusam Mahadev?
Marge Sarve Te Gautama Gautama Muni Muni Yasya Ashramam Pravishyanti.
Okay, Gautama Munaye.
Gautama
Munehe.
Munehe.
Munehe. Ashramam Pravishyanti.
Uttama. Gautama Munehe.
Munehe Ashramam Pravishyanti.
Pravishyanti. Okay, Te Pravishyanti.
Ekam, Ekam Prashnam. Sentence, Mithila Nagarat, no? She is...
No, they're going to Mithila Nagara.
Okay, they're going
Rama to... is going to that city.
Okay.
Not from that city.
Okay.
Uttama. Tadantaram Sukshma Bhagini?
Tatra Munehe Patni Ahalya Shapgrastam Tishthati.
Shapagrastam tishtati putraham
Shapagrasta Ahalya so feminine
Shapagrasta tishtati
oh okay that's an adjective is it
okay Shapagrasta tishtati Amira Mahadev
Shapagrasta is shashti vyakti
no.
adjective
it's an adjective so Ahalya Shapagrasta
Okay.
We have to learn this, Bhagini.
I have made mistakes in all these adjectives.
It's in the Abhyasa Pustakam. So I don't. If you all went through the Abhyasa Pustakam, right? So in the Abhyasa Pustakam, we learned the Unnata, Unnataha, all those adjectives.
Yeah.
Yes. So it's similar to that. It's the same thing. Adjectives.
But why is this Shapagrasta and not Shapagrasti? Like we said Sita Sundari, right? So how do you define that?
It is a curse, no?
Which is Ahalya Shapagrasta, is that?
Should I tell you?
आम् वदतु प्रत्यमा भगिनी कृपया.
सर्टन् वर्ड्स् दे वैल् मेकिङ्ग् देम् इन् टु फेमिनैन् वर्ड्स् दे टेक् इ एण्ड् सम् वर्ड्स् टेक् आ. सो सुन्दर बिकम् सुन्दरी. वि डोण्ट् काल् पर्सन् सुन्दरा. A woman is always Sundari. But Shapagrasta is for man and woman is Shapagrasta.
So, just we have to learn just by listening, right vocabulary.
Yep.
Okay. Thank you, Bhagini.
Yep, but mostly if it has Ta at the end, then it's either Taha or Ta.
Yeah.
Oh, that's a nice tip. Thank you.
Yep. Okay. सम्यक् ओके अस्तु. कः पठति? हु जस्ट् रेड् अमिरा महोदय अन्तिमं वाक्यं खलु. सो
रामस्य दर्शनेन अहल्या शापमुक्तं भवति.
शापमुक्ता भवति. अगेन् अहल्या शापमुक्ता भवति.
शापमुक्ता, शापग्रस्ता, शापमुक्ता.
सो शापमुक्ता इस् एक्चुलि वाट्
अनन्तरं
तौ राजपुत्रौ मिथिलानगरीम् आगच्छतः.
उत्तमम्. शिला भगिनी,
इस् इट् मिथिला नगरम् आर् मिथिला नगरे?
मिथिला नगरम् टु द सिटि, नाट् इन् द सिटि. ओके, कृपया म्यूट् मध्ये स्थापयतु न वदति चेत्. ओके, शीला भगिनी.
रामः दिव्यं चापं पश्यति.
सम्यक्. अस्मि महोदय.
सः चापं सुलभतया गृह्णाति. तस्य चापं सः
सो ऐ थिङ्क् इट्स् ट्रैङ्ग् टु से दि बो. सो सः चापः बिकम्
द्वितीयविभक्ति तं विकल्पकम्
आं तं चापं
सुलभतया गृह्णाति.
उत्तमं, सम्यक्. ओके, सुषमा भगिनी.
मौर्वी बन्धनस्य समये चापः भग्नः भवति.
उत्तमम्. अमिरा महोदय. भग्नः,
नाट् द्वितीयविभक्ति, प्रथमविभक्ति.
नो, इट् इस् विशेषण महोदय, दट् इस् वै इट् इस् इट् टेक्स् द फार्म् आफ्
वी आर् गेटिङ्ग् कन्फ्यूज्ड्.
बाणः,
सारी.
सो चापः भग्नः भवति.
दशरथः परिवारेण सह मिथिलानगरम् आगच्छति. सः अन्यं
तदेव. प्रतिमा भगिनि.
दशरथ परिवारेण सह मिथिलानगरं.
सीता विवाहः,
सीतायाः विवाहः रामेण सह भवति.
उत्तमम्. शीला भगिनि.
तदा भगवान् परशुरामः तत्र आगच्छति.
अस्तु, नमस्ते महोदय.
सः अन्यं दिव्य, सः अन्यं दिव्यं चापम्.
उत्तमम्.
चापं राम् राम् न,
Yes, for Ram.
Ramena dadati. No. Huh? Ram, for Ram, no?
For Ram, Ramaya, but not...
Ramaya dadati?
Yes. Samyak. Ramaya dadati. Okay. Sukshma Bhagini?
एतस्य चापाः मौर्वी बन्धनं करोतु इति सः रामं वदति.
एतस्य सो चापः चाप बिकम्स् वट्
चापाः
एतस्य चापस्य
चापस्य ओके द मौर्वी बन्धनं आफ् द चाप. Okay, okay, got it. Thank you.
Yes. Karotu iti saha Ramam vadati uttamam. Okay. M.E. Ramodaya?
Iti valdi. Ramaha tasya chapam api maurvi bandhanam karoti. That has become samasam. Chapam plus api, dvitiya vibhakti. Am I correct?
Tasya chapam api maurvi bandhanam karoti.
No, chapasya.
Oh, kshamitam. Ramaha tasya chapasya api maurvi bandhanam karoti uttamam. Okay. Tasya chapasya.
Yeah, okay. I got confused between the visheshanam and visheshyam vibhakti. Now, it's a very good exercise. I hope there will be one more exercise like this thing.
There's more. No worries. There's more. We'll continue in the next classes. Okay. Tasya chapasya.
Clarifies that visheshanam and visheshanam should have same vibhakti. That I didn't understand so clearly till I went through all this exercise.
Yes. You just have to know the meaning of the word. If you know the meaning, then you can identify if it's an adjective or if it's a noun.
Yeah.
And then you can... conjugate based on that.
Thank
you. Okay. Pritima Bhagini, Antimam Karoti Va?
Antimam. Yeah.
Parashuramaha?
Parashuramaha Ramam Abhinandati Dasharataha Parivarena Saha Mithila Nagaram Ayodhya Nagaram Gacchati.
Okay, I think Mithila Nagara is from Mithila Nagaram.
From, yeah. So Mithila Nagarat.
Panchami. Uttama. Samyak. Okay, tadanantaram, the meanings are here. Kutrapi Prashnam Astiva, are there any questions? Okay. Astu. So definitely.
I have got one question, Bhagini. I just missed out.
Astu.
Pratyaksham bhavati, correct, no? The first pair, Agnikunde, Yajna Purushaha, Pratyaksham bhavati. Is it Pratyaksham or anything else?
Pratyaksha iti. I remember.
Pratyaksha or Pratyaksham?
Pratyaksha.
Okay. Yeah, it should be same vibhakti as the previous.
Yes. Yajna Purushaha Pratyakshaha Bhavati. So it's talking about the Yajna Purushaha. Okay.
It is very good exercise. I hope there will be more exercises like this.
Yes. Okay.
Thank you. Amen.
Astu. Idani Vibhakti Vallari Karishyamaha. Okay. Gata Saptahe Vayam Kim Patitavantaha. What did we learn that class?
Shashti Vibhakti.
Uttamam Shashti Vibhakti.
Sarvanama.
Sarvanama Padam in what Vibhakti?
Shashti Vibhakti.
Shashti Vibhakti.
Shashti Vibhaktiaha Sarvanama.
We learned Sarvanama Padam in Shashti Vibhakti?
No.
Panchami Vibhakti. We learn Sarvanam Padam in Panchami Vibhakti.
Oh, okay.
tasmat kasmat
tasyaha
so panchami vibhakti the sarvanam padam in panchami vibhakti is not in the vibhakti vallati so that's why I added some additional parts. Okay uttamam and shashti vibhakti what did we learn
अनन्तरं पेज् 49 वि लर्न् 49 पेज् भगिनी तदनन्तरं दूरवाणी देवं नमस्कृतवान् अनन्तरं विद्युत् गता
षष्टि विभक्ति आल्सो द वर्ब् अकम्पनिङ्ग् द नौ वि कन्वर्ट् दट् इन् षष्टि
उत्तमं सो वाट् इस् इट् काल्ड् नाम किं रूपस्य नाम किं भाववाचकम् उत्तमं भाववाचकम् एण्ड् वि आल्सो लर्न् षष्टि विभक्ति एकवचनम् एण्ड् बहुवचनम् उत्तमं सो षष्टि विभक्ति एकवचनं बहुवचनम् एण्ड् भाववाचकरूपम् उत्तमम् Okay, so we did the Duravani Agata. Are there any questions in that? The Duravani Agata exercise? So, Devasya Namaskarasya Anantaram Vidyut Gata Gamanasya Anantaram Janakaha Ahutavan. Prashna Mastiva?
No.
Okay. Uttam. ओके सो विल् डु एक्टिविटि फैव् तत्र कः सूचना उदाहरणं च पठति इन्स्ट्रक्षन्स् ओके अस्तु शीला भगिनी पठतु कृपया सर्वे म्यूट् मध्ये स्थापयतु प्लीस् कीप् आन् म्यूट् एक्सेप्ट् शीला भगिनी ओके अस्तु पठतु
अभ्यासः सुनीलः यानि कार्याणि कृतवान् तेषाम् अवलीब्धः अस्ति तदाधारेण सः कस्मात् पूर्व किं कृतवान् इति निर्दिशत सुनीलः आपणं गतवान् वस्तूनि कृतवान् मित्राणि दृष्टवान् सस्यानि आरोपितवान् वस्त्राणि क्षालितवान् पत्राणि लिखितवान् पत्रिका पठितवान् बालान् पाठितवान् फलानि खादितवान् श्लोकान् कण्ठस्थीकृतवान् देवान् स्मृतवान् एक देवानां स्मरणतः पूर्व सुनीलः श्लोकान् कण्ठस्थीकृतवान्
उत्तमम् ओके सो इट् स्टार्ट्स् फ्रम् द बाटम् Devan Smritavan and then Shlokan Kantasthi Kritavan so it becomes Devanam Smaranataha Purvaha Sunilaha Shlokan Kantasthi Kritavan so Devanam Smaranataha Purvam so Devanam is Shashti Vibhakti so Devan becomes Devanam अनन् स्मरणं स्मरणतः पूर्वं स्मरणतः विभक्ति किम्
पञ्चमीविभक्ति भगिनी
पञ्चमीविभक्ति सो स्मरणतः पूर्वं सुनीलः श्लोकान् कण्ठस्थीकृतवान् सो श्लोकान् स्टेस् सेम् द्वितीयविभक्ति बहुवचनं कण्ठस्थीकृतवान् तदेव सो अवगच्छति वा स्पष्टं वा इस् दट् क्लियर् Any questions? Okay.
Questions will start coming when we try to do it.
This is complicated.
Okay, astu, chinta mastu. Astu, Pratima Bhagini, dvitiyam karoti va? प्रतिमा भगिनी अस्ति वा
पाठानां कण्ठस्थीकरणतः पूर्वं सुनीलः फलानि खादितवान्.
ओके, पाठः न, इट् शुड् बि श्लोकान्.
ओके, श्लोकानां कण्ठस्थीकरणतः पूर्वं सुनीलः फलानि खादितवान्.
उत्तमम्, उत्तमं. सो श्लोकानां कण्ठस्थीकरणतः पूर्वं सुनीलः फलानि खादितवान्. सो इफ् ऐ वर् यू, ऐ वुड् अण्डर्लैन् द श्लोकान् इस् यूस्ड् फोर् द नेक्स्ट् सेण्टेन्स्. सो श्लोकान् ऐ वुड् अण्डर्लैन् अण्ड् देन् ऐ वुड् यूस् हियर् श्लोकानां कण्ठस्थीकरणतः पूर्वं सुनीलः फलानि खादितवान्.
रैट्,
उत्तमम्. ओके, तदनन्तरं शीला भगिनी.
So next will be phalanam, phalani becomes phalanam. Phalanam khadanatah purva sunilah balan pathitavan.
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 Uttama, uttama. Samyak. Okay, samyak. Astu, Narasimhadya.
So next is the balan. बालानां, बालानां पठन्तः पूर्वं सुनीलः बालानां पाठनतः पूर्व सुनीलः पत्रिकाः पठितवान्.
सम्यक्. सुषमा भगिनी.
पत्रिकाणां पठनतः पूर्वं सुनीलः पत्राणि लिखितवान्.
उत्तमम्. एम्बिरा महोदय.
इति पत्रिकाया पत्रिकाणां,
पत्रिकाणां किमर्थं महोदय? इट् शुड् बि पत्रिकाणां बिकास्
प्लूरल्.
आं, बहुवचनं. सम्यक्, अस्तु.
पत्राणां लेखनतः पूर्वं सुनीलः पत्रिकां पत्रिकातः पठितवान्.
पुनः वदतु सम्पूर्णं वाक्यं.
पत्राणां लिखित लेखनतः पूर्वं वस्त्राणि क्षालितवान्.
सम्यक्, सम्यक्. पत्राणां लेखनतः पूर्वं सुनीलः वस्त्राणि क्षालितवान्. सम्यक्. प्रतिमा भगिनी.
वस्त्राणां क्षालनतः पूर्वं सुनीलः तस्यानि आरोपितवान्.
उत्तमम्. ओके, शीला भगिनी.
वेरी दि पञ्चमी विभक्ति डजंट कम ऑलवेज, इट कम्स ओनली इन सम केसेस. सः
हियर because there's purvam, you use panchami vibhakti.
Okay. Number, yes. Has it come in the sasyani shashti vibhakti, no? Or panchami?
No, sasyani is dvitiya vibhakti. The plants. The panchami vibhakti is kshalanataha, lekhanataha,
okay.
Patanataha purvam, yeah. ओके, कुत्र आसीत्?
सस्यानाम् आरोपणतः पूर्व सुनीलः मित्राणि दृष्टवान्.
सम्यक्. महोदय.
सो नेक्स्ट् इद मित्राणि. मित्राणां दर्शनतः पूर्वं सुनीलः वस्तूनि क्रीतवान्.
उत्तमम्. शिक्षा भगिनी.
वस्तूनां क्रयणतः पूर्वं सुनीलः आपणं गतवान्.
उत्तमम्, उत्तमं. सम्यक्
भगिनी. सो केन् बि मेक् दिस् इन्फरेन्स् दट् इफ् एनी नौन् कम्स् बिफोर् द वर्ब् इट् विल् आल्वेस् बि इन् द्वितीया विभक्ति, लैक् वस्तूनि क्रीतवान्, आपणं गतवान्. सो इस् देर् अ डेफिनेट् फार्मुला फार् देट्?
No, but you are mostly right. Yes, it's Ditya Vibhakti.
Okay.
To the store, the, when you use the, then yes, Ditya Vibhakti. Thank you. Okay. Uttamam. Okay, Samyak. Agre Saramahava, is it clear now? Spashtam va? Okay. Okay, Agre Saramaha. ओके तत्र अस्ति अध्यापकः कस्य कस्याः केषां कासां प्रतिभां दृष्टवान् न दृष्टवान् इति अधः निर्दिष्टम् अस्ति तदाधारेण वाक्यानि रचयत सो वी हैव टु यूज दि सर्वनामपदम् इन्टु षष्ठीविभक्ति परिवर्तनं कृत्वा वाक्यानि पूरयतु इति अस्ति ओके उदाहरणं पश्यामः उदाहरणमस्ति अध्यापकः तस्य प्रतिभां दृष्टवान् एतस्य प्रतिभां न दृष्टवान् सो इन् द कोष्टकं देयर्स् अ चेक् मार्क् सैड् एण्ड् अ एक्स् सैड् सो सः बिकम्स् तस्य सो तस्य प्रतिभां दृष्टवान् आम् अनन् एषः बिकम्स् एतस्य सो एतस्य प्रतिभां न दृष्टवान् ओके अस्तु प्रथमा भगिनी करोति वा प्रथमं
या वाट् इस् द सेण्टेन्स्
सो अध्यापकः
अध्यापकः प्रतिभां दृष्टवान् येस् सो अध्यापकः तस्य प्रतिभां दृष्टवान् एतस्य प्रतिभां न दृष्टवान्
उत्तमं दश उदाहरणं सो किं द सेकेण्ड् वन् द्वितीयं
अध्यापकः ओके सोरि
भगिनी वन् क्वशन् इट् शुड् बि तस्याः
यस् यस् शी वास् गेटिङ्ग् टु दट्
ओके
अध्यापकः तस्याः प्रतिभां वाट् इस् द सेण्टेन्स् तस्याः प्रतिभां
दृष्टवान्
एतस्याः प्रतिभां न दृष्टवान्
उत्तमं बहु उत्तमम् ओके केन् यु मेक् द सेण्टेन्स् ऐ मीन् क्षम्यतां केन् यु आस् द सेम् थिङ्ग् बट् वित् क्वशन् फोर्म् वित् का
अध्यापकः कस्याः प्रतिभां दृष्टवान्
उत्तमम् उत्तमं कस्याः प्रतिभां दृष्टवान् सो तस्याः बिकम्स् कस्याः
तस्याः
ओके अस्तु तदनन्तरं शीला भगिनी
भवान् भवतः अध्यापकः भवतः प्रतिभां दृष्टवान् भवत्याः प्रतिभां न दृष्टवान्
उत्तमम् ओके केन् यु मेक् द प्रश्नरूपं द क्वशन् फोर्म्
विल् यु प्लीस्
ओके
मेबि यु केन् डु द स्मालर् सैज़् भगिनी सो वी केन् सी maybe
okay. So hopefully you can see
yeah now we can
okay okay
patah kasya kasya prativa drishtavan kasya prativam na drishtavan
kasyaha prativam na drishtavan uttam okay anasya madhya
फोर्त् वन् ओके
अध्यापकः
एतासां प्रतिभां दृष्टवान् एतेषां प्रतिभां न दृष्टवान्
ओके एताः किं भवति
एतासां
एतासाम् उत्तमम् एतासां प्रतिभां
प्रतिभां दृष्टवान् एतेषां प्रतिभां न दृष्टवान्
उत्तमम् उत्तमम् ओके प्रश्नरूपं करोति वा क्वशन् वन्
अध्यापकः कासां प्रतिभां दृष्टवान्
उत्तमम्
दृष्टवान् अध्यापकः केषां प्रतिभां न दृष्टवान्
उत्तमम् उत्तमम् ओके सुषमा भगिनी
अध्यापकः तेषां प्रतिभां दृष्टवान् तासां प्रतिभां न दृष्टवान्
उत्तमम्
सो अध्यापकः केषां प्रतिभां दृष्टवान् एण्ड् अध्यापकः कासां प्रतिभां न दृष्टवान्
उत्तमं सम्यक् अस्तु एमिरा महोदय
अध्यापकः मम प्रतिभा दृष्टवान् तव प्रतिभा न दृष्टवान्
न वयं किं भवति
ओ वयम् ओके ओके वयम् अस्मात् अस्माकम्
अस्माकम्
अस्माकं प्रतिभा न दृष्टवान्
अध्यापकः
कस्य प्रतिभा दृष्टवान्
कस्य प्रतिभां दृष्टवान्
परिपूरल् का काया प्लूरल् आफ् वयं षष्टिविभक्ति
प्लूरल् आफ् कस्य इस् वट् किमस्ति कस्य बिकम्स् केषां सो केषां प्रतिभां न दृष्टवान् अस्माकं प्रतिभां न दृष्टवान् स्पष्टं वा अस्तु मोहन् महोदय स्वागतं
स्वागतं
Do you want to try the last one or listen?
Bhagini, can you hear me?
Yes, yes, I can hear you.
Yeah, Bhagini, I'll just, today's class I will just listen because I just landed at O'Hare Airport, so I just didn't want to miss the class, so that's the reason. Sorry.
Okay, okay. No, chinta mastu. No worries. Okay.
Sorry, sorry.
Chinta mastu, no worries. प्रतिमा भगिनि अन्तिमं
अध्यापकः भवतीभ्यः प्रतिभां दृष्टवान् भवद्भ्यः प्रतिभां न दृष्टवान्
ओके भवत्यः बिकम्स्
भवतीभ्यः इट् इस् षष्टि
So. Oh, bhavati pyahana va?
Bhavati naam, right?
Bhavati naam.
Okay, ek animation. Bhavati pyaha. Oh, maybe...
Bhavati naam.
Bhavati naam.
This is the naam, right?
Bhavati naam.
Bhavati naam. Okay, sorry. Adhyapakah Bhavati naam Pratibham Drishtavan Bhavati
भवतां
या रैट् भवतां प्रतिभां न दृष्टवान्
ओके भवतीनां भवतां भवतीनां ओके भवतीनां दृष्टवान् भवतां न दृष्टवान् प्रश्नरूपं वदति वा
अध्यापकः कासां प्रतिभां दृष्टवान्
उत्तमं
कासाम् एण्ड् अध्यापकः केषां प्रतिभां न दृष्टवान्
उत्तमं सम्यक् सम्यक् ओके अस्तु इदानीं वाक्यानि रचयामः त्रीणि वाक्यानि सर्वनामपदानि उपयुज्य षष्टिविभक्ति उपयुज्य वाक्यानि रचयामः सो लेट्स् मेक् सम् सेण्टेन्सेस् यूसिङ्ग् षष्टिविभक्ति सर्वनामपदानि षष्टिविभक्ति
एतस्याः नाम सीता
उत्तमम् एतस्याः नाम सीता तदनन्तरं
नृपः तस्य सेवकम् आदिशति
उत्तमम् उत्तमम् इतोपि एकम्
अहं भारतदेशस्य नागरिकम् अस्मि
उत्तमवाक्यं परन्तु सर्वनामपदानि उपयुज्य वाक्यम्
ओके ओके सोरि सो भारतदेश मम अतीव प्रिय
ओके सर्वनामपदम् उपयुज्य मम प्रिय ओके सम्यक्
तस्य नगरम् अमेरिका अस्ति
तस्य तस्य देशं अमेरिका अस्ति उत्तमं
जानकी एतासां पुस्तकानि क्रीतवती
एतासां पुस्तकानि क्रीतवती ओके अस्तु उत्तमं
संस्कृत अस्माकं भाषा अस्ति
उत्तमम् सम्यक् इतोपि अस्ति वा वाक्यम् ओके उत्तम उत्तमम् उत्तमम् ओके तदनन्तरं
एतस्याः मम भगिनी अस्ति
उत्तम उत्तमवाक्यम् एतस्याः
मम भगिनी अस्ति she is my sister okay never mind my has to be the shashti
esha is correct not etasya etasya sir
na etah etah mama bhaginyah asti they are my sisters mama bhaginyah asti ओके उत्तमम् अस्तु ओके तदनन्तरम् अस्ति सो विशेषरूपाणि अस्ति सो दीस् आर् स्पेशल् वर्ड् षष्टिविभक्ति वि लर्न्ड् द हरिशब्दः गुरुशब्दः एण्ड् पितृशब्दः सेम् थिङ्ग् स्त्रीलिङ्गं मतिः धेनुः एण्ड् माता अनन् दधि एण्ड् मधु इन् नपुंसकलिङ्गं सो the harihi becomes harehe hari hari naam and then guru guruho guru naam pituhu pitru naam kartuhu kartru naam मतेः मतीनां धेनोः धेनूनां मातुः मातृणां दध्नः दध्नां मधुनः मधूनाम् इति भवति. ओके, सो द नेक्स्ट् पेज्. ओके, तत्र अस्ति. सो as to fill in with ekavachanam and bahuvachanam. Okay, udaharanam asti kavih asti kavih kaveh kavinam. So ikaranta ikaranta pullingam like hari shabdah harihi harayah. So kavih kaveh kavinam kaveh kavina. Okay, astu. प्रतिमा भगिनी प्रथमं करोति वा? प्लीज लेट मी नो इफ आई शुड ज़ूम इन.
प्रतिमा भगिनी धृतेः धृतीनाम्.
उत्तमं, धृतेः धृतीनाम्. शीला भगिनी
तरोः तरुणाम्.
उत्तमं, नरसिंह महोदय
धातुः धातॄणाम्.
उत्तमं, सुषमा भगिनी
दुहिता दुहितुः दुहित्रीणां.
पुनः करोतु.
तुः दुहितुः एण्ड् दुहित्रीणां
दुहितॄणां
दुहितॄणां. ओके,
आं दुहितॄणां. ओके, एमिरा महोदय
भगिनि वन् क्वश्चन्, वाट् इस् दधि एण्ड् वाट् इस् दध्नि?
दधि इस्
योगर्ट्
योगर्ट् दध्नि
दध्नः हियर् रैट् दध्नः
दध्नः दध्नः इस् अ षष्ठी भक्ति of dadi.
Okay,
dadini becomes dadnam. Dadini is the bahuvachanam.
Oh, okay, okay, I thought they had different words. Thank you bagini.
Okay, samyak. So rajjuh emira madya.
Yeah, rajjeh rajjunam.
Punah karotu.
Rajveh rajjunam.
Na, so rajjuhu, what is it? Ikaranta, ukaranta, rukaranta?
Ukaranta strilingam.
Ukaranta strilingam. So the example they gave is denuhu becomes denoho. So rajjuhu becomes
rajjoho.
Rajjunam. Samyak. Okay, tanantaram pratima bhagini.
Which one should I do?
Avadihi.
Avadihi. Avadehe avadhinam.
Avadehe avadhinam. Uttamam. Shila bhagini.
Salatu. Salatoho salatunam.
Uttamam. Narsay modya.
Prashnita.
प्रशस्तिः
प्रशस्तेः प्रशस्तीनां.
प्रशस्तेः प्रशस्तीनाम्. उत्तमं, महोदय, डिड् ऐ स्किप् यु लास्ट् वन्? क्षम्यताम् इफ् ऐ स्किप् यु. ओके, प्रशस्तेः प्रशस्तीनाम्. उत्तमं, सुषमा भगिनी
निघण्टुः निघण्टोः निघण्टूनाम्.
उत्तमम्, अमीरा महोदय
भ्रातुः भ्रातारम्.
भ्रातुः अनन्
भ्रातुरः भ्रातारम्.
न, पुनः करोतु. पश्यतु, उरुकारान्तपुल्लिङ्गः पश्यतु.
Bratruhu, Bratrunam.
Bratuhu, Bratrunam.
Bratuhu, Bratrunam.
Uttama. Bratuhu, Bratrunam. Samyak. Okay. Avagachativa, Prashnamastiva?
Nasti.
Okay. Samyak. ओके अग्रेसरामः तदनन्तरमस्ति आवरणे दत्तानां पदानां षष्ट्यन्तेन एकवचनरूपेण रिक्तस्थलं पूरयत सो वी हैव टू फिल इन द सेंटेंसेस विथ एकवचनं षष्टिविभक्तिरूपं उदाहरणमस्ति मुनिः बिकम्स मुनेः आश्रमः श्रीरङ्गपुरे अस्ति सो द मुनीस् आश्रमम् इस् इन् श्रीरङ्गपुरम् इति अस्ति ओके अस्तु प्रथमा भगिनी करोति वा प्रथमं
रघोः पिता आगतः
सम्यक् शीला भगिनी
सो वक्ता इज लाइक पिता राइट भगिनी
यस
वक्तुः सम्मानं कृतम्
उत्तमम् उत्तमम् नमस्ते महोदय
यातुः सहोदरः पालयितः
पलायितः
पलायितः पलायितः मीन्स् फ्लोन् न फ्लेड्
ओके उत्तमं यातुः
यातुः
ओके सुषमा भगिनी
मधुनः माधुर्यम् आवर्णीयम् आवर्णनीयम्
मधुनः माधुर्यम् अवर्णीयम्
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 अवर्णनीयम्
ओ क्षम्यताम् अवर्णनीयम् अवर्णनीयम्
इन्डिस्क्रैबल्
आम्
ओ ओके ओके
अस्तु अमीरा महोदय
प्रकृतेः आराधकाः भवेम
उत्तमम् उत्तमम्
भगिनी वाट् इस् भवेम
वि विल् बि
वि शुड् बि ऐ थिंक
शुड् बि
वि शुड् गिव् रिस्पेक्ट् टु नेचर
वि शुड् वर्शिप् नेचर
वर्शिप् नेचर आम्
ऐ शुड् भवेम
I should, Kshamita, I should worship nature.
Oh, thank you.
Okay, Pratima Bhagini?
Kavehe parichayam krutaha.
Uttamam. Sheila Bhagini?
So, Rajjuhu, like a guru. So, Rajjoho,
दैर्घ्यं
भवान् जानातु
उत्तमम् ओके रज्जुः
भगिनी वट् इस् द मीनिङ्ग् दिस् रज्जो इस् अ रोप्
दैर्घ्यं मीन्स् लेंथ्
दैर्घ्यं मीन्स् वट्
लेंथ् द लेंथ् आफ् द रोप् यु शुड् नो
ओ ओके
or know the length of the rope. Raju is strilingam asti.
Raju, okay. Oh, it's so not Denu. It's like a...
Denuhu,
okay.
How do you pronounce? Dairyam or what is it?
Dairyam.
Dairyam.
Dairyam. Okay.
Bhagini, if it's strilinga, then it will be...
रूढेः उल्लङ्घनं खेदाय भवेत्
रूढेः
उल्लङ्घनं न
उल्लङ्घनं उल्लङ्घनं खेदाय
भवेत्
उत्तमम्
What is the meaning? I don't know. Rudehe.
Rudehe is custom.
Custom, no? Okay, okay.
So,
not following customs, we get regret, something
like that. Regret.
Yes.
Custom or tradition? Okay, okay, right.
Ullanganam is violation, no?
Violation.
Yes.
Okay.
So, here means not following.
Not following, okay.
Or violating the tradition. Okay. Sukshma Bhagini?
Jantunaha nashaha karniyaha. We have to destroy germs. Germs have to be destroyed.
Uttam. Jantuhu kim bhavati?
Germs or...
Jantu, what did you say becomes a shashti vatti?
Jantunaha.
Jantoho.
Jantoho.
Okay, jantoho. Okay.
Guruhu, guruho. Like that, jantoho. Okay. Amira Modya?
Abhiruchehe avagamanam avashyakam.
Uttanam. Uttanam. Okay, Spashtamba, is that clear?
Yes.
Okay, so we will just do the last exercise. Avarane dattanam padanam shashti bahuvachanantena rupena riktasthanani purayata. Udaranamasti saha rashinam gananam krutavan. Okay. Pratima Bhagini, Pratam Karotiva?
Yeah. Nalini Pratikritinam Vitaranam Krutavati.
Pratikritinam Vitaranam
Krutavati.
Uttam. Okay. Sheila Bhagini?
It's all Bahuvachan, is all Nam Nam Nam, right, Bhagini?
Yes. Yeah.
So number two, right, Bhagini?
Yes.
Chadi Nam Upari Suska Kasthani Santi.
Uttam. Okay. Nasa Modya?
Which one, Bhagini? Third one?
Tritiya. Ashrami?
Ashrami. Palandunam upayogaha nishiddaha asti.
Samichya. Okay. Sushma Bhagini?
Pashunam rakshanam asmakam kartavyam asti.
Samyak. Amira Modya?
Matra nam.
Matra nam.
Matrunam.
Matrunam.
Matrunam. Melanam. Mangala. Bengaluru Nagare. Prachalat.
Mangaluru Nagare.
Mangaluru Nagare. Prachalat.
Prachalat. Uttanam. Pratima Bhagini.
What is Prachalat?
Happened.
Okay, happened. Then you are.
Yeah.
Pratima Bhagini?
Karyakartanam avashyakta adhika vartate.
Uttamam.
Karyakartrunam avashyakta adhika vartate.
Uttamam. Sheila Bhagini?
Shishu nam mugdha vachanebhya mataraha santushtaha jataha.
Shishunam uttamam. Okay. Tadantaram nase modya?
Dhatrunam avalim ganeshaha sajji krutavan. सज्जीकृतवान्
कृतवान्
भगिनी आवली मीन्स् लिस्ट् न
आवलिं
Yeah, it's a list. We just learned in that list. We just did the exercise number 5. It says avali adah asti. Abhyasa sunila yani karyani kritavan tesham avali adhya is a list. Like we just finished Yes, avali is a list. We just learned that on number 5th. Abhyasa.
किं कुत्र
गो टु नम्बर् 5 भगिनी वी जस्ट् डिड् देट् सुनील् वट् डिड् सुनील् डू फस्ट् एण्ड् देन् आफ्टर्
ओ ओ ओ सुनील् आवली ओके उत्तम उत्तमं सम्यक् Okay, so preparing the list. Okay. Itopi prashnam asti va? Are there any questions about meaning or anything?
Bhagini, one question. If you go to the third one, ashrame, palandunam, upayogaha, nishiddha asti. Shouldn't it be nishiddham asti?
न उपयोगः निषिद्धः
ओके
सो
इट् इस् एन् एड्जेक्टिव् दट्स् वै इस् इट्
यस् यस्
उपयोगः ओके
यस् निषिद्धः उपयोगः
सो द नेक्स्ट् वन् इस् पशूनां रक्षणम् अस्माकं कर्तव्यम् अस्ति बिकास् अस्माकं सो दट्स् वै इट् इस् कर्तव्यम् इस् इट्
न कर्तव्यं कर्तव्यम् इस् क्रियापदं सो कर्तव्यं मीन्स् वी शुड् लैक् ऐ शुड् प्रोटेक्ट् ओर् शुड् बि प्रोटेक्टेड् सो कर्तव्यं करोति कर्तव्यम् इट्स् वन् फार्म् आफ् क्रियापदम्
What is palandu?
Onion, I think. Onion.
Onion.
Yeah. Onion.